इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः दिव्यानन्द झाः। प्रधानमन्त्री नरेन्द्र मोदी अस्य मासस्य ऊनत्रिंशत् दिनांकात् जापान चीन देशयोः चतुर्दिवसीय यात्रार्थं प्रस्थास्यते। श्रीमोदी पञ्चदशे भारत जापान वार्षिक शिखर सम्मेलने सहभागं कर्तुम् अगस्त मासस्य ऊनत्रिंशत् दिनांकात् त्रिंशत् दिनांक पर्यन्तं जापान देशे भविष्यति। प्रधानमन्त्रिणः मोदिनः जापान देशस्य एषा अष्टमी यात्रा भविष्यति। अपि च जापान देशस्य प्रधानमन्त्रिणा शिगेरू इशिबा इत्यनेन सह तस्य प्रथमं शिखर सम्मेलनं भविष्यति। सम्मेलनावधौ उभौ अपि प्रधानमन्त्रिणौ भारत जापानयोः रक्षा सुरक्षा व्यापारार्थ व्यवस्था प्राविधिकी नवाचारादीनां समीक्षां करिष्यतः। क्षेत्रीय वैश्विक महत्वपरक विषयेष् अपि एतौ सविस्तरं चर्चां करिष्यतः। स्वयात्रायाः द्वितीय चरणे प्रधानमन्त्री नरेन्द्र मोदी तियानजिन नगरे शंघाई सहयोग संघटनस्य शिखर सम्मेलने सहभागं कर्तुम् अगस्त मासस्य एकत्रिंशत् दिनांकात् सेप्टेम्बर मासस्य प्रथम दिनांक पर्यन्तं चीन देशे भविष्यति। शिखर सम्मेलनावधौ प्रधानमन्त्री अनेकैः विश्वनेतृभिः सह द्विपक्षीय विचारणां करिष्यतीति अनुमीयते। प्रधानमन्त्री नरेन्द्र मोदी ह्यः अवदत् यत् ऑपरेशन सिन्दूर इत्यनेन भारतस्य रक्षा कार्यनीतेः नूतनः मार्गः अंकितोऽस्ति। श्रीमोदी अवदत् यत् भारतं यत् आतंकवादं भारते स्थापयित्वा आक्रमणस्य योजनां कृत्वा वा कोऽपि पलायितुं न शक्नोति। सः अवदत् यत् आतंकवादिनः भूमिस्थाः भूत्वा प्रच्छन्नाः स्युः चेदपि भारतस्य क्षिप्यस्त्राणि तान् अन्विष्यन्तीति।
ऑपरेशन सिंदूर ने भारत की रक्षा नीति की नई लकीर खींच दी है। अब भारत में आतंकवादी भेजकर हमले करा के कोई बच नहीं सकेगा। आतंकवादी चाहे पाताल में क्यों न छिप जाए, भारत की मिसाइलें उन्हें दफन करके रहेगी।
अवसरे बिहार राज्यस्य गयानगरे द्वादश सहस्र कोटि रूप्यकाणां बहुविध विकास परियोजनानां शिलान्यासोद्घाटनानन्तरं प्रधानमन्त्रिणा एवम् उक्तम्। एतासु विकास परियोजनासु विद्युन्मार्ग स्वास्थ्य पौर विकास जलापूर्ति इत्यादयः अन्यतमाः सन्ति। श्रीमोदी गया दिल्ल्योर्मध्ये अमृत भारत एक्सप्रेस रेलयानस्य वैशाली कूडर्मयोः मध्ये बौद्ध सर्किट रेलयानस्य च ध्वजप्रदर्शनपूर्वकं शुभारम्भं कृतवान्। प्रधानमन्त्री कोलकातायाम् अपि द्विशताधिक पञ्चसहस्र कोटि रूप्यकाणां विभिन्न विकास परियोजनानां शिलान्यासम् उद्घाटनं च अकरोत्। अत्रावधौ प्रधानमन्त्री तिसृणां मेट्रो सेवानां शुभारम्भम् अपि कृतवान्। राष्ट्रपतिः द्रौपदी मुर्मुः संसदा अभ्युपगतेभ्यः पञ्चभ्यः महत्वपूर्णेभ्यः विधेयकेभ्यः स्वकीयां स्वीकृतिं दत्तवती। एतेषु विधेयकेषु आन्तर्जालिक क्रीडा संवर्धन नियमनम् अन्यतमम् अस्ति। एतदतिरिच्य राष्ट्रपतिना पञ्चविंशत्यधिक द्विसहस्रतमाब्दीयाय आयकराधिनियमाय पञ्चविंशत्यधिक द्विसहस्रतमाब्दीयाय कराधान विधि संशोधनाधिनियमाय पञ्चविंशत्यधिक द्विसहस्रतमाब्दीय प्रबन्धन संस्थान संशोधनाधिनियमनाय च स्वीकृतिः। अद्य द्वितीयः अन्तरिक्ष दिवसः वर्तते। राष्ट्रिय अन्तरिक्ष दिवसावसरे अद्य अशेष देशे अनेकविधाः कार्यक्रमाः आयोज्यन्ते। भारतीयर्तु विज्ञान विभागेन अद्य राजस्थानस्य कतिपयेभ्यः भागेभ्यः अतिवृष्टेः रक्तवार्णिकी संचेतना प्रकाशिता अस्ति। वार्ताः